चतुर्थोऽध्यायः पञ्चदशी श्लोक 1। ईश्वरेणापि जीवेन सृष्टं द्वैतं विविच्यते विवेके सति जीवेन हेयो बन्धः स्फुटी भवेत् मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरं स मायि सृजतीत्याहुः श्वेताश्वतरशाखिनः आत्मा वा इदम् अग्रे भूत्सा ईक्षत सृजा इति सङ्कल्पेनाश्रजल्लोकान् स एतानिति बह्वृचाः खं वाय्वग्निर्जलोरौषधिः अन्नदेहाक्रमादमे सम्भूता ब्रह्मणस्तस्मात् एतस्मात् आत्मनोऽखिलाः बहुश्यामहमेवातः प्रजायेयेति कामतः तपस्तप्त्वा श्रुदत् सर्वं जगदित्याहतित्तिरिः इदमग्रे स देवासीत् बहुत्वाय तदैक्षत तेजो बन्नाण्डजादीनि ससर्जेति च सामगाः विस्फुलिङ्गा यथा वह्नेः जायन्ते क्षरतस्तथा विविधाश्चिज्जडाभावा इत्यातर्वणिकाश्रुतिः जगदव्याकृतं पूर्वं आसीद्व्याक्रियताधुना आसीद्व्याक्रियताधुना दृश्याभ्यां नाम रूपाभ्यां दृश्याभ्यां नाम रूपाभ्यां विराडादिषु ते स्फुटे विराडादिषु ते स्फुटे विराण् मनुर्नरा गावः विराण् मनुर्नरा गावः खराश्वाजावयस्तथा खराश्वाजावयस्तथा पिपीलिका वधिद्वन्द्वं पिपीलिका वधिद्वन्द्वं इति वाजस्सनेयिनः इति वाजस्सनेयिनः कृत्वा रूपान्तरं जैवं कृत्वा रूपान्तरं जैवं देहे प्राविशदीश्वरः देहे प्राविशदीश्वरः इति ताः श्रुतयः प्राहुः इति ताः श्रुतयः प्राहुः जीवत्वं प्राणधारणात् जीवत्वं प्राणधारणात् चैतन्यं यदधिष्ठानम् चैतन्यं यदधिष्ठानम् लिङ्गदेहश्च यः पुनः लिङ्गदेहश्च यः पुनः चिच्छाया लिङ्गदेहस्था चिच्छाया लिङ्गदेहस्था तत्सङ्गो जीव उच्यते तत्सङ्गो जीव उच्यते माहेश्वरी तु मायाया माहेश्वरी तु मायाया तस्या निर्माणशक्तिवत् तस्या निर्माणशक्तिवत् विद्यते मोहशक्तिश्च विद्यते मोहशक्तिश्च तं जीवं मोहयत्यसौ तं जीवं मोहयत्यसौ मोहादनीशतां प्राप्य मोहादनीशतां प्राप्य मग्नो वपुषि शोचति मग्नो वपुषि शोचति ईशसृष्ठमिदं द्वैतम् ईशसृष्ठमिदं द्वैतम् सर्वमुक्तं समासतः सर्वमुक्तं समासतः सप्तान्नः ब्राह्मणे द्वैतम् सप्तान्नः ब्राह्मणे द्वैतम् जीवसृष्ठं प्रपञ्चितं जीवसृष्ठं प्रपञ्चितम् अन्नानि सप्तज्ञानेन अन्नानि सप्तज्ञानेन कर्मणा जनयत्पिता कर्मणा जनयत्पिता मर्त्यान्नमेकं देवान्ने मर्त्यान्नमेकं देवान्ने द्वे पश्वन्नं चतुर्थकं द्वे पश्वन्नं चतुर्थकम् अन्यत्रितयमात्मार्थम् अन्यत्रितयमात्मार्थम् अन्नानां विनियोजनम् अन्नानां विनियोजनम् व्रीह्यादिकं दर्शपूर्णं व्रीह्यादिकं दर्शपूर्णं आसौ क्षीरं तथा मनः आसौ क्षीरं तथा मनः वाक्प्राणाश्चेति सप्तत्वं वाक्प्राणाश्चेति सप्तत्वम् अन्नानाम् अवगम्यताम् अन्नानाम् अवगम्यताम् ईशेन यद्यप्येतानि ईशेन यद्यप्येतानि निर्मितानि स्वरूपवतः निर्मितानि स्वरूपवतः तथापि ज्ञानकर्मभ्याम् तथापि ज्ञानकर्मभ्याम् जीवोकार्षीत्तदन्नताम् जीवोकार्षीत्तदन्नताम् ईशकार्यं जीवभोग्यम् ईशकार्यं जीवभोग्यं जगद्वाभ्यां समन्वितं जगद्वाभ्यां समन्वितं पितृजन्या भर्तृभोग्या पितृजन्या भर्तृभोग्या यथायोषित्ततेष्यतां यथायोषित्ततेष्यतां मायावृत्यात्मको हीश मायावृत्यात्मको ईश सङ्कल्पः साधनं जनौ सङ्कल्पः साधनं जनौ मनोवृत्यात्मको जीव मनोवृत्यात्मको जीव सङ्कल्पो भोगसाधनं सङ्कल्पो भोगसाधनम् ईशनिर्मितमण्यादौ ईशनिर्मितमण्यादौ वस्तुन्येकविधे स्थिते वस्तुन्येकविधे स्थिते भोक्तुधिवृत्तिनानात्वात् भोक्तृधिवृत्तिनानात्वात् तद्भोगो बहुधेष्यते तद्भोगो बहुधेष्यते हृष्यत्येको मणिं लब्ध्वा हृष्यत्येको मणिं लब्ध्वा कृद्यत्यन्यो ह्यलाभतः कृद्यत्यन्यो ह्यलाभतः पश्यत्येव विरक्तोत्र पश्यत्येव विरक्तोत्र न हृष्यति न कुप्यति न हृष्यति न कुप्यति प्रियोऽप्रिय उपेक्ष्यश्चेत् प्रियोऽप्रिय उपेक्ष्यश्चेत् याकारं मणिगात्रयः आकारा मणिगात्रयः सृष्टा जीवैरीशसृष्टं सृष्टा जीवैरीशसृष्टं रूपं साधारणं त्रिषु रूपं साधारणं त्रिषु भार्या स्नुषाननान्दा च भार्या स्नुषाननान्दा च याता मातेत्यनेकधा याता मातेत्यनेकधा प्रतियोगि धिया योषिर् प्रतियोगि धिया योषिर् भिद्यते न स्वरूपवत् भिद्यते न स्वरूपवत् ननु ज्ञानानि विद्यान्तां ननु ज्ञानानि विद्यान्ताम् आकरस्तु न भिद्यते आकरस्तु न भिद्यते योषिद्वपुष्यतिशयो योषिद्वपुष्यतिशयो न दृष्टो जीवनिर्मितः न दृष्टो जीवनिर्मितः मैवं मांसमयी योषित मैवं मांसमयी योषित काचिदन्या मनोमयी मांसमय्या अभेदेपे मांसमय्या अभेदेपे विद्यते ही मनोमयी भिद्यते ही मनोमयी भ्रांतिस्वप्नमनोराज्य स्मृतिस्वस्तु मनोमयम् जाग्रन्मामेन मे यस्य न मनोमयतेति चेत् बाढं मानेतु मे येन योगात्स्याद्विषयाकृतिः भाष्यवार्तिककाराभ्याम् अयमर्थ उदीरितः मूषासिक्तं यथा ताम्रम् तन्निभं जायते तथा रूपादीन्व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् व्यञ्जको वा यथा लोको व्यङ्ग्यस्याकारतामियात् सर्वार्थव्यञ्जकत्वादेः अर्थाकारा प्रदृश्यते मातुर्मानाभिनिष्पत्तिः निष्पन्नं मेयमेति तत् मेयाभिसङ्गतं तच्च मेयाभत्वं प्रपद्यते सत्येवं विषयौ द्वौ स्तो घटौ मृण्मय धीमयौ मृण्मयो मानमेयस्यात् साक्षिभास्यस्तु धीमयः अन्वयव्यतिरेकाभ्याम् धीमयो जीवबन्धकृत् सत्यस्मिन् सुखदुःखेषु तस्तस्मिन्नसति न द्वयम् तस् तस्मिन्न सति न द्वयम् असत्यपि च बाह्यार्थे असत्यपि च बाह्यार्थे स्वप्नादौ बध्यते नरः स्वप्नादौ बध्यते नरः समाधिसुप्तिमूर्च्छासु समाधिसुप्तिमूर्च्छासु सत्यप्यस्मिन्न भद्यते सत्यप्यस्मिन्न भद्यते दूरदेशं गते पुत्रे दूरदेशं गते पुत्रे जीवत्येवात्र तत्पिता जीवत्येवात्र तत्पिता विप्रलम्भकवाक्येन विप्रलम्भकवाक्येन मृतं मात्वा प्रयोदिति मृतं मात्वा प्रयोदिति मृतेऽपि तस्मिन् वार्तायां मृतेऽपि तस्मिन् वार्तायाम् अश्रुतायां न रोदिति अश्रुतायां न रोदिति अतः सर्वस्य जीवस्य अतः सर्वस्य जीवस्य बन्धकृन्मानसं जगत् बन्धकृन्मानसं जगत् विज्ञानवादो बाह्यार्थ विज्ञानवादो बाह्यार्थ वैयर्त्या स्यादिहेति चेत् वैयर्त्या स्यादिहेति चेत् न हृद्याकारमाधातु न हृद्याकारमाधातु बाह्यस्यापेक्षितत्वतः बाह्यस्यापेक्षितत्वतः वैयर्थ्यमस्तु वा बाह्यम् वैयर्थ्यमस्तु वा बाह्यम् न वारयितुमीष्महे न वारयितुमीष्महे प्रयोजनमपेक्षन्ते प्रयोजनमपेक्षन्ते न मानानीतिः स्थितिः न मानानीतिः स्थितिः बन्धश्चेन्मानसं द्वैतम् बन्धश्चेन्मानसं द्वैतम् तन्निरोधेन शाभ्यति तन्निरोधेन शाभ्यति अभ्यसेद्योगमेवातो अभ्यसेद्योगमेवातो ब्रह्मज्ञानेन किं वद ब्रह्मज्ञानेन किं वद तात्कालिकद्वैतशान्ता तात्कालिकद्वैतशान्ता वप्यागामि जनिक्षयः वप्यागामि जनिक्षयः ब्रह्मज्ञानं विना न स्यात् ब्रह्मज्ञानं विना न स्याद् इति वेदान्तडिण्डिमः इति वेदांत डिंडिमः अनिवृत्ते पीश सृष्टे अनिवृत्ते पीश सृष्टे द्वैते तस्य मृषात्मतां द्वैते तस्य मृषात्मतां बुद्धा ब्रह्माद्वयं बोद्धं बुद्धा ब्रह्माद्वयं बोद्धं शक्यं वस्त्वैक्यवादिनः शक्यं वस्त्वैक्यवादिनः प्रलये तन्निवृत्तौ तु प्रलये तन्निवृत्तौ तु गुरुशास्त्राद्यभावतः गुरुशास्त्राध्यभावतः विरोधिद्वैताभावेपि विरोधिद्वैताभावेपि न शक्यं बोध्युमद्वयं न शक्यं बोध्युमद्वयम् अबाधकं साधकं च अबाधकं साधकं च द्वैतमीश्वरनिर्मितं द्वैतमीश्वरनिर्मितं अपनेतुमशक्यं चेति अपनेतुमशक्यं चेति आस्तां तद्विष्यते कुतः आस्तां तद्विष्यते कुतः जीवद्वैतं तु शास्त्रीयं जीवद्वैतं तु शास्त्रीयम् अशास्त्रीयमिति द्विधा अशास्त्रीयमिति द्विधा उपाददीतशास्त्रीयम् उपाददीतशास्त्रीयम् आतत्त्वस्यावबोधनात् आतत्त्वस्यावबोधनात् आत्मब्रह्मविचाराख्यम् आत्मब्रह्मविचाराख्यम् शास्त्रीयं मानसं जगत् शास्त्रीयं मानसं जगत् बुद्धे तत्त्वे तच्च हेयम् बुद्धे तत्त्वे तच्च हेयम् इति श्रुत्यनुशासनम् इति श्रुत्यनुशासनम् शास्त्राण्यधीत्य मेधावी शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः अभ्यस्य च पुनः पुनः परमं ब्रह्म विज्ञाय परमं ब्रह्म विज्ञाय उल्कावत् तान्यतोत्सृजेत् उल्कावत्तान्यतोत्सृजेत् ग्रन्थमभ्यस्य मेधावी ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ज्ञानविज्ञानतत्परः पलालमिव धान्यार्थी पलालमिव धान्यार्थी त्यजेद् ग्रन्थमशेषतः त्यजेद् ग्रन्थमशेषतः तमेव धीरो विज्ञाय तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः प्रज्ञां कुर्वीत ब्राह्मणः नानुध्यायात् बहून् शब्दान् नानुध्यायात् बहून् शब्दान् वाचो विग्लापनं हितत् वाचो विग्लापनं हितत् तमेवैकं विजानीत तमेवैकं विजानीत ह्यन्यावाचो विमुञ्जथ ह्यन्यावाचो विमुञ्जथ यच्चेन्द्वाङ्मनसां प्राज्ञ यच्चेद्वाङ्मनसां प्राज्ञ इत्याद्याः श्रुतयः स्फुटाः अशास्त्रीयमपि त्वैतं तीव्रं मन्दमिति द्विधा तीव्रं मन्दमिति द्विधा कामक्रोधादिकं तीव्रं कामक्रोधादिकं तीव्रं मनोराज्यं तथेतरत् उभयं तत्त्वबोधात् प्राङ् उभयं तत्त्वबोधात् प्राङ् निवार्यं बोधसिद्धये शमः समाहितत्वं च साधनेषु श्रुतं यतः बोधात् ऊर्ध्वं च तद्देयम् बोधात् ऊर्ध्वं च तद्धेयं जीवन्मुक्तिप्रसिद्धये कामादिक्लेशबन्धेन युक्तस्य नहि मुक्तता जीवन्मुक्तिरियं मा भूत् जन्माभावे त्वहं कृति तर्हि जन्मापितेस्त्वेव स्वर्गमात्रात्कृती भवान् क्षयातिशयदोषेण स्वर्गो हेयो यदा तदा स्वयं दोषतयात्मायं कामादिः किं न हीयते तत्त्वं बुद्धापि कामादीत् निःशेषं न जहासि चेत् यथेष्टाचरणं ते स्यात् कर्मशास्त्रातिलङ्घिनः बुद्धाद्वैतस्त्वतत्त्वस्य बुद्धाद्वैतस्त्वतस्त्वस्य यथेष्टाचरणं यदि शुनां तत्त्वदृशां चैव को भेदो शुचि भक्षणे बोधात् पुरा मनो दोष मात्रात् क्लिश्रास्यथाधुना अशेष लोक निंदा चेति अहो ते बोधवैभवम् विद्वराहादितुल्यत्वम् माकांक्षी तत्त्वविद्भवान् सर्वधीदोषसंत्यागात् लोकैः पूज्यस्व देववत् काम्यादिदेशदृष्ट्याध्याः कामादित्यागहेतवः प्रसिद्धो मोक्षशास्त्रेषु तानन्विष्य सुखी भव त्यज्यतामेव कामादीः मनोराज्ये तु काक्षतिः अशेषदोषबीजत्वात् क्षणिर्भगवते रिता ध्यायतो विषयान् पुंसः संगस्तेषूपजायते संगात् संजायते कामः कामात् क्रोधो विजायते क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति शक्यं जेतुं मनोराज्यम् निर्विकल्पसमाधितः निर्विकल्प समाधितः सुसंपादः क्रमात् सोपि सुसंपादः क्रमात् सोपि सविकल्प समाधिना सविकल्प समाधिना बुद्धतत्वेन धीदोष बुद्धतत्वेन धीदोष शून्येनैकान्तवासिना शून्येनैकान्तवासिना दीर्घं प्रवणमुच्चार्य दीर्घं प्रवणमुच्चार्य मनोराज्यं विजीयते मनोराज्यं विजीयते जिते तस्मिन् वृत्तिशून्यं जिते तस्मिन् वृत्तिशून्यं मनस्तिष्ठति मूकवत् मनस्तिष्ठति मूकवत् एतत्पदं विशिष्ठेन एतत्पदं विशिष्ठेन रामाय बहुधेरितम् रामाय बहुधेरितम् दृश्यं नास्तीति बोधेन दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् मनसो दृश्यमार्जनम् सम्पन्नं चेत्तदुत्पन्ना सम्पन्नं चेत्तदुत्पन्ना परा निर्वाणनिवृत्तिः परा निर्वाणनिवृत्तिः विचारितमलं शास्त्रं विचारितमलं शास्त्रं चिरमुद्ग्राहितं मितः चिरमुद्ग्राहितं मिथः संत्यक्तवासनान्मौनाद् संत्यक्त्वा वासनान्मौनात् धृते नास्त्युत्तमं पदम् धृते नास्त्युत्तमं पदम् विक्षिप्यते कदाचिद्धि विक्षिप्यते कदाचिद्धि कर्मणा भोगदायिना कर्मणा भोगदायिना पुनः समाहिता सा स्यात् पुनः समाहिता सा स्यात् तद्दैवाभ्यासपाटवात् तद्दैवाभ्यासपाटवात् विक्षेपो यस्य नास्त्यस्य विक्षेपो यस्य नास्त्यस्य ब्रह्मवित्वं न मन्यते ब्रह्मवित्वं न मन्यते ब्रह्मौ वायामिति प्राहुः ब्रह्मौ वायामिति प्राहुः मुनयः पारदर्शिनः मुनयः पारदर्शिनः दर्शनादर्शने हित्वा दर्शनादर्शने हित्वा स्वयं केवलरूपतः स्वयं केवलरूपतः यस्तिष्ठति सतु ब्रह्मन् यस्तिष्ठति सतु ब्रह्मन् ब्रह्मणा ब्रह्मविस्वयं ब्रह्मणा ब्रह्मविस्वयं जीवन्मुक्तेः परा काष्ठा जीवन्मुक्तेः परा काष्ठा ஜீவத்வைத்தவிவர்ஜனாத் ஜீவத்வைத்தவிவர்ஜனாத் லப்யதே சாவதோத்ரேதம் லப்யதே சாவதோத்ரேதம் ஈஷத்வைதாத்விவேசிதம் ஈஷத்வைதாத்விவேசிதம்.